एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। आराष्ट्रम अविरल वृष्ट्या सहैव दुरा पन्नासु जलप्लव भूस्खलन जलनमग्नतासु निपत्य एकोन पञ्चाशत् जना मृता सन्ति। शुक्रवास रात आराष्ट्रम वृष्ट्या सहैव दुरा पन्नेषु जलप्लवेषु भूस्खलनेषु च निपत्य एतावन्तो जना मृता वर्तन्ते। भूस्खलनेषु जलप्लवेषु च निपत्य इलाम जनपदे सप्तत्रिंशत् जना, उदयपुर जनपदे द्वौ जनौ, रौतहट जनपदे त्रयो जना, खोटाङ जनपदे एको जना, पाँचथर जनपदे षट् जना मृता सन्ति। जलप्लव भूस्खलनादिषु निपत्य सप्त जना विलुप्ता सन्ति चेत् विंशतिर् जना आहताश वर्तन्ते इति प्रहरिणा ज्ञापितम् वर्तते। जलप्लव भूस्खलनेषु निपत्य विलुप्तानां जनानाम् अन्वेषण कार्यम् जायमानमस्ति, क्षेत्रे विवरणमपि संकल्यमानमस्ति इति च प्रहरिणा ज्ञापितम् वर्तते। जलवायु वातावरण विज्ञान विभागेन वर्षाकारिणी न्यूनचापीय प्रणाली देशाद् निर्गता स्थिति ज्ञापितम् वर्तते। वर्षाकारिण्यः न्यूनचापीय वृष्टिज प्रणाल्यः नेपालाद् निर्गमनेन वर्षाणाम् दुर्बलत्वेऽपि वातावरणे सुधारे सञ्जातेऽपि च वर्षायामस्य निर्गमनाभावात् साम्प्रतिक्याम् अवस्थायाम् वर्षाजन्य संकटात् आत्मरक्षायै सावधानतायाः अवलम्बनाय च जलवायु विज्ञान विभागेन अनुरूद्धमस्ति। बंगाल खातीय क्षेत्रात् विकसिताया न्यूनचापीय प्रणाल्या कारणेन अस्यैव आश्विन मासस्य सप्तदश दिवसात् ह्य प्रातः कालम् यावत् एषा वर्षा प्रणाली सक्रिया आसीत्। देशस्य विभिन्नेषु भागेषु तस्या प्रभावस्य विषये च विभागेन ज्ञापितम् आसीत्। देशस्य पूर्वभागस्य पर्वतीय क्षेत्रेषु तराई क्षेत्रस्य जनपदेषु च सम्भूताया अविरल वृष्टेः कारणेन सप्तकौशिकी नद्यां जलस्य प्रवाहः उच्चमात्रायां वर्तते। ह्य प्रातः एकादशवादने विहितस्य मापनस्य अनुसारेण कौशिकी नदीबन्धनं सम्भूय प्रति सेकेण्ड पञ्चलक्ष्याणि सप्तसहस्राणि षष्ट्यधिक नवशतं चेति क्यूसेक परिमितं जल प्रवाहमाणम् आसीत्। अधुना पञ्चलक्ष्याणि त्रयस्त्रिंशत् सहस्राणि चत्वारिंशदधिक पञ्चशतं चेति क्यूसेक परिमितं जलं प्रवाहमाणं वर्तते इति प्रमुख जनपदाधिकारी धर्मेन्द्र कुमार मिश्र अज्ञापयत्। जलस्य प्रवाहस्य वर्धनानन्तरं कौशिकी नद्यः षट्पञ्चाशत् एव द्वाराणि समुद्घाटितानि सन्ति इति असौ असूचयत्। जलप्रवाहस्य उच्चैः वर्धनानन्तरं संकटस्य संकेतस्वरूपेण रक्तवर्णस्य वैद्युतदीपः प्रज्वालितो वर्तते, रक्तध्वजश्च स्थापितोऽस्ति। एवमेव कौशिकी नदीं परितः स्थलेषु यातायात साधनानां सञ्चालनं निषिद्धमस्ति। ऊर्जो भौतिक पूर्वाधार यातायात मन्त्री कुलमान घिसिङ वृष्टेः कारणेन पिहितानां काष्ठमण्डपस्य पश्चिमदिशः मार्गान् सञ्चालयितुं पूर्वकार्यं विधीयमानमस्ति। विपद्भि क्षतिग्रस्तानां मर्मतसंहार कार्यं तीव्रगत्या करिष्यते इति प्रतिबद्धताम् अभिव्यक्ति। ह्य मन्त्रालये विहिते पत्रकार सम्मेलने मन्त्री घिसिङ नेपालस्य पूर्वभागीय क्षेत्रेष् अधुनापि वृष्टेः वर्षणस्य क्रम सञ्चलन् अस्ति, वृष्टेः पश्चात् एव मार्ग सुधारस्य कार्यं भविष्यति इति मन्त्री घिसिङ अवोचत्। गत शुक्रवासरात् ह्यस्तनावधिं यावत् अविरल वृष्टेः जलवायु घटनायाश्च कारणेन देशस्य विभिन्नेषु स्थानेषु दुरापन्ना उत्पन्नेषु भूस्खलन जलविप्लवादि विपुल मात्रायां मार्गावरोध यातायाते च महान् प्रभावः सम्भूतोऽस्ति इति मन्त्रिणा घिसिङ इत्यस्य कथनमस्ति। विपदः कारणेन कतिसूचित स्थानेषु भौतिक क्षति सम्भूता सत्यपि सर्वकारस्य पूर्वकार्याणां कारणेन विपुल मानवीय क्षतिः सम्भूता नास्ति इति मन्त्री घिसिङ असूचयत्। काष्ठमण्डपात् देशस्य पश्चिमभागस्य मुगलिन मार्गेण पोखरा राजमार्गस्य पृथ्वी राजमार्गे यातायात साधनानां निषेधनं विहितम् वर्तते। विभागस्य महानिर्देशकः विजय जैशी बीपी राजमार्गस्य भूस्खलनम् अपसारणस्य कार्येऽपि शीघ्रमेव प्रगतिः भविष्यति इति उदयरयत्। मार्ग विभागेन स्थानीय प्रशासनेन नेपाल प्रहरिणा, सशस्त्र प्रहरिणा, यातायात व्यवस्थापन प्रहरिणा, स्थानीय निकायैश्च सह समन्वयं विधाय मार्ग सम्भारस्य मार्गाणां सञ्चालनस्य कार्याय तीव्रता प्रदत्ता अस्ति इति असूचयत्। राष्ट्रिय विपद संकट न्यूनीकरण व्यवस्थापन प्राधिकरणेन विपद्भिः सम्भूताया क्षतेः विवरणं यथाशीघ्रं प्रेषयितुं सम्बद्ध निकायाः अनुरोधा वर्तन्ते। प्राधिकरणे ह्य उपविष्टेन वर्षायामज संकट प्रतिकार्य नियामक निकायस्य उपवेशेन विवरणं प्रेषयितुम् अनुरोधं कृत्वा नैरन्तर्यस्य वृष्टेः कारणेन उत्पन्नायाः विपदः घटनाभ्य पीडितानां प्रभावितानां च व्यक्तीनाम् अन्वेषणस्य उद्धारस्य सहयोगस्य पुनस्थापनायाश्च कार्याय नैरन्तर्यं प्रदातुं निर्णीतमस्ति। उपवेशेन विपदा प्रभावितायै व्यक्ते परिवारजनेभ्यश्च सहयोग पुनस्थापना सम्बद्धानि कार्याणि यथाशीघ्रं सम्पादयितुं सम्बद्ध स्थानीयस्तरान् सम्बद्ध निकायान् च अनुरोद्धुं निर्णीतमस्तीति प्राधिकरणस्य कार्यकारी प्रमुख दिनेश भट्ट अज्ञापयत्। स्थानीय सर्वकारेण समन्वयं विधाय मृतकानां परिवारेभ्य सहयोगं प्रदातुं आहतानां जनानां निःशुल्कम् उपचारस्य व्यवस्थां विधातुं सम्बद्ध जनपद प्रशासन कार्यालयान् अनुरोद्धुं निर्णीतमस्तीति असूचयत्। सर्वकारेण विपद संकट प्रतिकार्यस्य कार्य प्रत्यक्ष रूपेण असंलग्नाः जनपद प्रशासन कार्यालयाः सार्वजनिक सेवायाः नियमित रूपेण संचालनाय निर्दिष्टाः वर्तन्ते। ह्य अध्यक्ष दिनद्वयं सार्वजनिकावकाशस्य प्रदानाय उद्घोषितं सदपि गृहमन्त्रालयेन सर्वेभ्यो जनपद प्रशासन कार्यालयेभ्य परिपत्रं विधाय विपदः संकटे अविद्यमानेषु जनपदेषु सार्वजनिक सेवायाः प्रवाहाय नैरन्तर्यं प्रदातुम् एवं निर्दिष्टाः वर्तन्ते। विपदः संकटस्य प्रतिकारे असंलग्नैः जनपदैः सार्वजनिक सेवां सुचारू विधातुं निर्णयानुसारेण अनुरुद्धा वर्तन्ते इति गृहमन्त्रालयेन प्रेषिते परिपत्रे उक्तं वर्तते। नेपाले भीषण वृष्टेः कारणेन जातां जनधनयोः क्षतिं प्रति भारतीय प्रधानमन्त्रिणा नरेन्द्र मोदिना दुःखं व्यक्तं वर्तते। भारतीय प्रधानमन्त्रिणा मोदिना सामाजिक सञ्जालस्य माध्यमेन भीषण वृष्टेः कारणेन सम्भूतां जनधनयोः क्षतिं प्रति दुःखं प्रकटयित्वा आवश्यकानां सर्वविधानां सहयोगानां कृते भारतः सदा तत्परोऽस्तीति उक्तं वर्तते। नेपालीनां महतः विजयादशमी पर्वणः अद्य अन्तिमं दिनम् अद्यापि देव्याः दुर्गायाः टीका प्रसाद ग्रहणादि कार्यं सञ्चलदस्ति। देशस्य कतिपय स्थानेषु अद्यापि जनैः मान्यजनानां हस्तेभ्यः टीकाशीर्वादाः गृह्यमाणाः सन्ति। अद्य कोजाग्रत पूर्णिमा इति नाम्ना प्रसिद्धायाम् आश्विन शुक्ल पूर्णिमायां तिथौ पञ्चदश दिनेभ्यः पूर्वम् आश्विन शुक्ल प्रतिपदि स्थापितः घटः रोपितः एवाङ्कुराश्च विसृज्यन्ते। एवञ्च पूर्णिमायां रात्रौ शरदोत्सवश्च समाद्रीयते। पुरा द्वापरयुगे भगवता श्रीकृष्णेन वृन्दावने अस्यामेव रात्रौ ब्रजगोपीभिः सह महारासोत्सव विहितः आसीत् तथा प्रभृति प्रतिवर्षं कोजाग्रत पूर्णिमायाः दिने शरदोत्सवस्य आयोजनायाः परम्परा वर्तते। एवमेव आश्विन शुक्ल पूर्णिमातः कार्तिक शुक्ल पूर्णिमा पर्यन्तम् एकमासं यावत् समाद्रीयमाणम् आकाशदीप प्रज्वलनं कार्तिक स्नानं तुलसी पूजनं चेति अनुष्ठानं च प्रारभ्यते। आश्विन शुक्ल पूर्णिमातः एकमासं यावत् कार्तिक स्नानं कृत्वा तुलसी विरुधां पूजनेन आकाशदीप प्रज्वलनेन च सौभाग्यं सम्पत्तिः श्रेयश्च प्राप्यन्ते इति धार्मिक विश्वासु वर्तते। आकाशदीपः वंशस्य पलाशस्य पीपलस्य वा लिङ्गे आकाशे प्रज्वाल्यते। एष दीप भगवते विष्णवे समर्प्यते। अस्मिन् अवसरे स्वयंभू चैत्ये महादीपदानं च क्रियते। इति समाचारः।